इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका मुदिता वेतालः आदौ मुख्य वार्ताः राष्ट्रम् अद्य 670वां गणतंत्र दिवसम् आमानयति अस्मिन् अवसरे नवदिल्ल्यां कर्तव्य पथे राष्ट्रपतिः द्रौपदी मुर्मुः देशस्य नेतृत्वं ध्वजारोहणं च कृतवती इण्डोनेशियायाः राष्ट्रपतिः प्रबोवो सुबियांटो इत्यसौ मुख्य अतिथित्वेन गणतंत्र दिवस समारोहे उपातिष्ठत् गणतंत्र दिवसस्य पथ संचालक कार्यक्रमे स्वर्णिम भारत विरासत और विकास इत्यतस्मिन् विषये आधारिताः एकत्रिंशदधिकं यावत् सन्निरूपिकाः प्रदर्शिताः केन्द्र प्रशासनेन यूपीएस इति एकीकृत सेवानिवृत्ति वृत्ति योजनाः कार्यान्वयनम् आधिकारिक रूपेण अधिसूचितम् अपि च आईसीसी अंडर 19 इत्येतस्यां महिला T20 विश्व चषक प्रतिस्पर्धायां अद्य भारतं बांग्लादेश दलं अष्टस्तोभैः पराजित्य उपांत्य चक्रे प्रविष्टवत् अथ वार्ताः विस्तरेण राष्ट्रम् अद्य 670वां गणतंत्र दिवसम् आमानयति अस्मिन् अवसरे नवदिल्ल्यां कर्तव्य पथे राष्ट्रपतिः द्रौपदी मुर्मुः ध्वजारोहणं कृतवती
जयति जय जय मम भारतम् मम भारतम्
इतः प्राक् प्रधानमन्त्री नरेन्द्र मोदी राष्ट्रिय समर स्मारकम् उपेत्य देशाय हुतिंगतेभ्यः वीरेभ्यः पुष्पांजलिं समर्पितवान् इण्डोनेशियायाः राष्ट्रपतिः प्रबोवो सुबियांटो इत्यसौ मुख्य अतिथित्वेन समारोहे उपातिष्ठत् अद्य आयोजिते प्रयाणे देशस्य सभ्यतां संस्कृतिं वैज्ञानिक प्रगतिं च आदाय मनोहिरिण्यः सन्निरूपिकाः प्रस्तुताः प्रयाणे 300+ कलाकारैः देशस्य वाद्ययन्त्राणां ध्वनिषु सारे जहां से अच्छा इत्येतं गीतं प्रदर्शितम् समारोहे उदग्र विमानैः ध्वजस्य आकृतौ पुष्पवर्षा कृता अस्मिन् वर्षे प्रयाणे 10,000+ विशिष्ट अतिथयः आमन्त्रिताः आसन् एतेषु सरपञ्च हस्तशिल्प स्वसहायता समूहानां सदस्याः आशा आंगनवाड़ी कार्यकर्तारः राजमार्ग निर्माण सम्बद्धाः श्रमिकाः च सम्मिलिताः आसन् गणतंत्र दिवसस्य पथ संचल कार्यक्रमे स्वर्णिम भारत विरासत और विकास इत्यतस्मिन् विषये आधारिताः एकत्रिंशदधिकं यावत् सन्निरूपिकाः प्रदर्शिताः प्रथमवारं कर्तव्यपथे तिसृणां सेनानां सन्निरूपिकाः भागं प्रदर्शितवत्यः हरियाणायाः सन्निरूपिकायां भगवद्गीतायाः उत्तरप्रदेशस्य च सन्निरूपिकायां प्रचल्यमानस्य महाकुम्भस्य दृश्यानि प्रदर्शितानि कार्यक्रमस्य समापनं 47 विमानानां नभ प्रदर्शन्यासः जातम् राष्ट्रपतिना द्रौपदी मुर्मू वर्यया 25+2000 वर्षाय 39+100 जनेभ्यः पद्म पुरस्कार प्रदातुं स्वीकृतिः प्रदत्ता अस्यां सूच्यां 7 पद्म विभूषण पुरस्कारः 19 पद्म भूषण पुरस्कारः 23+100 च पद्मश्री पुरस्काराः सम्मिलिताः सन्ति पुरस्कृतेषु त्रयोविंशतिः महिलाः सन्ति। अवधेयं यत् अस्यां सूच्यां साहित्य संगीत कलादि क्षेत्र सम्बद्धाः भारतीयाः वैदेशिकांश्च जनाः सम्मिलिताः वर्तन्ते। अत्रावधौ प्रधानमंत्री नरेन्द्र मोदी सकलेभ्यः पद्म पुरस्कार प्राप्त विशिष्ट जनेभ्यः वर्धापनानि अयच्छत्। श्रीमोदिना सामाजिक संदेश पटले लिखितं यत् भारताय इदं हि गौरवस्य क्षणं विद्यते यत् उत्कृष्टोपलब्धिं समधिगतानां जनानां सम्मानं भवति इति। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एयर चल दूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्र प्रशासनेन यूपीएस इति एकीकृत सेवा निवृत्ति वृत्ति योजनाः कार्यान्वयनम् आधिकारिक रूपेण अधिसूचितम्। प्रशासनेन केन्द्र सर्वकारस्य कर्मचारिभ्यः राष्ट्रिय सेवा निवृत्ति वृत्ति प्रणाल्याम् एकस्य विकल्पस्य रूपेण विगते वर्षे अगस्त मासे एकीकृत सेवा निवृत्ति वृत्ति योजना आरब्धा आसीत्। इयं योजना अस्मिन् वर्षे अप्रैल मासस्य प्रथम दिनात् प्रचलिष्यति। राष्ट्रपति पदासीना द्रौपदी मुर्मू प्रतिपादितवती यत् एकं राष्ट्रम् एकं निर्वाचनम् इति विधेयकं संसदि प्रस्तावितेषु वचनेषु सुशासनस्य नियमान् पुनर्परिभाषितुं प्रतिज्ञते इति। असौ कथितवती यत् एकं राष्ट्रम् एकं निर्वाचनम् इति विधेयकं शासने निरन्तरताम् इतोऽपि सुदृढीकरिष्यति। अपि च नीतिगत निष्क्रियतां रोद्धुं संसाधनानां विचलनं न्यूनीकर्तुं वित्तीय भारतञ्च अल्पकर्तुं शक्नोति इति। गणतंत्र दिवसस्य पूर्व संध्यायां राष्ट्रं संबोधयन्ती राष्ट्रपतिः अवोचत् यत् अस्माकं देशः औपनिवेशिक मानसिकतायाः अनेकान् अवशेषान् परिवर्तयितुं कठोर प्रयासान् पश्यति इति। यो हि सप्तचत्वारिंशदधिक नवदशशततम वर्षात् भारतीयानां मध्ये विराजमानो विद्यते। अनया अग्रे स्पष्टीकृतं यत् भारतीय दण्ड संहिता दण्ड प्रक्रिया संहिता भारतीय साक्ष्य अधिनियमानां क्रमशः भारतीय न्याय संहिता भारतीय नागरिक सुरक्षा संहिता भारतीय साक्ष्य अधिनियमेषु परिवर्तनाय कृतनिर्णयः एतादृशेषु प्रयासेषु उल्लेखनीयो विद्यते।
The new criminal laws place the delivery of justice instead of punishment at the center of the criminal justice system. Moreover, the new laws grant top priority to countering crimes against women and children.
प्रधानमंत्री नरेन्द्र मोदी गणतंत्र दिवसस्य शुभावसरे देशवासिभ्यः शुभकामनाः प्रदत्तवान्। एकस्मिन् सामाजिक संदेश पटले श्री मोदी अलिखत् यत् राष्ट्रम् अद्य गणतंत्रस्य 75वं गौरवयुतवर्षम् आमानयति। अस्मिन् शुभावसरे तेभ्यः समेभ्यः विभूतिभ्यः नमनम् अस्ति यैः संविधानं निर्मीय एतत् सुनिश्चितं कृतं यत् अस्माकं विकासयात्रा लोकतन्त्रे गरिमणि एकतायां च आधारिता स्यात् इति। आकाशवाण्याः महानिदेशिका डॉ प्रज्ञापालीवालगौडः इत्येषा अद्य गणतंत्र दिवसावसरे राष्ट्रिय राजधान्याः आकाशवाणी भवने राष्ट्रिय ध्वजारोहणं कृतवती। आकाशवाण्याः परिसरे असौ महात्मा गांधी वर्यस्य प्रतिमायां पुष्पांजलिं समर्पितवती। एथलेटिक्स क्रीडासु भारतस्य ज्योति याराजी इत्यनया गतदिने फ्रांस देशे एषमः मीटिंग डे नैनेटेस मेट्रोपोल इति प्रतियोगितायां महिलानां षष्टिः मीटर बाधा धावन स्पर्धायां स्वर्णपदकं विजितम् इति वार्ताः।